नमस्कारः सर्वेभ्यः. अस्माकं न्यायवर्गे अस्माभिः एतावत् पर्यन्तं न्यायशास्त्रस्य परिचयं प्राप्य किञ्चित् पदार्थानां विषये अवलोकितम्. अस्तु, कति पदार्थाः सन्ति इति चेत् न्यायशास्त्रे सप्तपदार्थाः: द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति सप्तपदार्थाः सन्ति. तेषु एतावत्पर्यन्तम् उद्देशग्रन्थे अथवा उद्देशविभागे द्रव्यं, गुणः, कर्म अपि च सामान्यम् इमे पदार्थाः अस्माभिः अवलोकिताः. विशिष्टतया गतवर्गे सामान्यपदार्थनिरूपणम् इत्यस्य विषये अस्माभिः पठितम्. तर्हि किञ्चित् पुनरावर्तनं कृत्वा इतः अग्रे सरेम. सामान्यस्य निर्देशवाक्यमस्ति परमपरं चेति द्विविधं सामान्यम् इति. इत्युक्ते सामान्यम् इति यः पदार्थः अस्ति तद् सः द्विविधमस्ति. सामान्यं, परम् अथवा अपरम् इति भवति इति अस्माभिः दृष्टम्. उद्देशग्रन्थे तथैव कुर्वन्तः स्मः खलु. इत्युक्ते द्रव्यस्य निर्देशः यदा कृतः तत्र द्रव्याणि कानि इति उक्त्वा नवैव नवद्रव्याणि इति सूचितम्. पुनः गुणाः के के इति उक्त्वा तत्र चतुर्विंशतिगुणाः सन्ति इति सङ्ख्या सूचिता गुणस्य विषये अपि. तद्वद् कर्मणां विषये अपि पञ्चकर्माणि इति सूचितमासीत् कर्मणां नामानि उक्त्वा. तद्वद् सामान्यमिति यः पदार्थः अस्ति तद्विविधं परम् अपरम् इति. अस्तु, तर्हि सामान्यम् इत्युक्ते किम् इति स्थूलरीत्या कः वदति? राधिका भगिनी वदति वा किञ्चित्?
गुणः, क्षम्यतां भगिनि, सामान्यम् इत्युक्ते किम् इति. परमपरं चेत् द्विविधं सामान्यम् इति वयं ज्ञातवन्तः. यदि एकम् उदाहरणं दृष्ट्वा वयं पुस्तके उक्तवान् अस्ति यदि धेनुः अस्ति एकं धेनुं दृष्ट्वा अपरं धेनुमपि धेनुः एव इति वक्तुं शक्यते. किमर्थम् इत्युक्ते गोत्वम् अस्ति तस्मात् कारणार्थं यत्र यत्र गोत्वम् अस्ति सः प्राणिः धेनुः इति एव वयं वक्तुं शक्यते.
समीचीनं भगिनि. तर्हि भवत्या यदुक्तं यत्र यत्र गोत्वं तद् गौः इति. एकां गां दृष्ट्वा अपरां गाम् अभिज्ञातुं शक्नुमः. कथम् इति चेत् तत्र गोत्वम् इति जातिः अथवा सामान्यं वर्तते. अस्तु, अन्ततो गत्वा सामान्यम् इत्युक्ते किम् इति एकस्मिन् एव वाक्ये वक्तव्यं भवति चेत् कथं वदामः इति. विद्या भगिनी वक्तुमिच्छति वा?
नमस्ते महोदय, अहं मेहुला अस्मि.
आं भगिनि, अत्र सामान्यम् इत्युक्ते समानानां धर्मः सामान्यम् इति वाक्यमस्ति.
एकम् उदाहरणं दत्वा पुस्तकम्
अत्र एकं पुस्तकमस्ति, अनन्तरम् अपरं पुस्तकमस्ति, अनन्तरम् अपरं पुस्तकमस्ति. तर्हि सर्वेषु पुस्तकेषु पुस्तकत्वम् इति जातिः अस्ति, तदेव सामान्यम् इति शास्त्रे उच्यते.
हा, इत्येव शास्त्रे उच्यते. समानानां धर्म पुस्तकानि समानानि सन्ति एकदृष्ट्या. यद्यपि न्यायशास्त्रे प्रत्येकं वस्तु भिन्नम् इति स्वीक्रियते, तथापि एकदृष्ट्या पुस्तकानि समानानि. तेषु सर्वेषु पुस्तकत्वम् अस्ति यथा भगिन्या उक्तं. तर्हि समानानां धर्मः सामान्यम् इति आगच्छति इति अस्माभिः ज्ञातम्. अस्तु, दशमपुटं पश्यन्तु. दशमे पुटे तत्र विषयः कः इति चेत् एकत्र अनेकजातीनां वृत्तित्वम् इति विषयः आगतः आसीत्. इत्युक्ते एकस्मिन् पदार्थे नैके अनेकानि सामान्यानि अथवा अनेकाः जातयः भवितुमर्हन्ति इति. तर्हि तस्य विषये इतोपि किञ्चित् अद्य परिशीलयिष्यामः. चित्रे यत् प्रदर्शितं तस्य विषये पुटस्य अन्तिमपरिच्छेदः तत्र अस्ति, पठेम किञ्चित्. विजी भगिनी पठति वा?
इदानीं पठामि
दशमपुटस्य अन्तिमपरिच्छेदः.
इत्थं दर्शित रीत्या इत्थं दर्शितरीत्या पुस्तके द्रव्ये तिस्रः नीलादौ च तिस्रः जातेः सन्ति. कर्मणि द्वे जाति भवेताम्. सर्वा अपि इमाः जातेः एकविधदर्शनेन सिद्धयन्ति. इदं पुस्तकम् इदम् अपरं पुस्तकम् इदम् अपि अपरम् इति अनेकानि पुस्तकानि दृष्ट्वा पुस्तकत्वं सिद्धयति. एवं गुणत्वादौ ज्ञातव्यं. तत्रापि रूपं गुणः रसः गुणः इत्येवम् एकाकारप्रतीत्या सर्वेषु गुणत्वसिद्धिः एवं कर्मणि.
अस्तु भगिनि, अधुना
पुस्तकानि अनेकानि सन्ति, भिन्नानि सन्ति, किन्तु
भगिनि
किन्तु
पठितं भवति तदेव वक्तव्यमस्ति. अस्तु, प्रथमवाक्यं वाक्ये किम् उक्तमासीत्?
इत्थं दर्शितरीत्या पुस्तके द्रव्ये तिस्रः नीलादौ च तिस्रः जातयः सन्ति. दर्शिकरीत्या पुस्तके पुस्तकत्वं पृथ्वीत्वं द्रव्यत्वं सन्ति. तद्वत् नीलरूपं मध्ये नीलत्वं रूपत्वं गुणत्वं सन्ति. तादृशे उत्क्षेपणकर्मणि उत्क्षेपणत्वं कर्मत्वं स्तः. कर्मणि द्वे जाति भवेताम्. कर्मणि उत्क्षेपणत्वं कर्मत्वं द्वे जाति भवति भवतः. सर्वा अपि इमाः जातेः एकविधदर्शनेन सिद्ध्यन्ति. सर्वा अपि इमा जाता एकविधदर्शनेन सिद्ध्यन्ति इत्युक्ते पुस्तकत्वं पृथ्वीत्वं द्रव्यत्वम् इति एकविधजाति साधु वा न
पुस्तकत्वम् इति एका जातिः पृथ्वीत्वम्
सर्वे पुस्तकेषु सन्ति.
हा, कथं वयं तद् वक्तुं शक्नुमः इति चेत् एकविधदर्शनेन
आकारः.
हा, सर्वाणि पुस्तकानि पुस्तकानि एकविधानि
एकविधानि खलु. सत्यम्. इदम् अपरं पुस्तकम् इदम् अपि अपरम् इति अनेकानि पुस्तकानि दृष्ट्वा पुस्तकत्वं सिद्ध्यति. अनेकानि पुस्तकानि दृष्ट्वा वयं ज्ञातुं शक्नुमः इदम् एकं पुस्तकम् अपरम् एकं पुस्तकम् अनेकानि पुस्तकानि परन्तु पुस्तकत्वं सामान्यम्. अत एव एकं पुस्तकं दृष्ट्वा अपरं पुस्तकम् एतत् अपि पुस्तकम् इति ज्ञातुं शक्नुमः. किन्तु पुस्तकत्वम् इति भावः अस्ति, सामान्यभावः
अस्ति,
सामान्यभावः सर्वेषु पुस्तकेषु सन्ति. तद्वत् नीलरूपं दृष्ट्वा सर्वेषु नीलत्वं रूपत्वं गुणत्वं सन्ति इति चेत् सामान्यं सन्ति इति चेत् नीलरूपम् इति वयं जानीमः. एवं गुणत्वादो ज्ञातव्यौ तत्रापि रूपं गुणः रसः गुणः इत्येवम् एकाकारं प्रतीत्वा सर्वेषु गुणत्वसिद्धिः एवं कर्मणि तत्रापि रूपं गुणः रसः रूपमपि गुणः रसः अपि गुणः इति एकाकारम्
अस्तु तस्य विषये किञ्चित् वदामि. धन्यवादः भगिनि.
धन्यवादः.
तत्र एकाकारप्रतीतिः इति उक्तं खलु. न्यायशास्त्रे प्रतीतिः इत्युक्ते ज्ञानं. अस्तु अग्रे आगच्छति. अस्य विषये इतोपि किञ्चित् चर्चयामः. प्रतीतिः इत्युक्ते ज्ञानम्. अस्तु ज्ञानस्य आकारः भवति कस्यचिदपि ज्ञानस्य. अयं घटः अयं पटः यत्किमपि भवतु तस्य आकारः भवति. आकारः इत्युक्ते शब्दरूपेण वर्णनं. तद्वदेव रूपं गुणः रसः गुणः इति आकारः. तत्र वयं पश्यामः यत् एकाकारप्रतीतिः अस्ति इत्युक्ते एकः एव आकारः एतेषां खलु. रूपम् इति उद्दिश्य तद्गुणः इति वदामः. रसः गुणः शब्दः गुणः इति वदामः. एकाकारप्रतीत्या एवम् एकाकारप्रतीत्या एतेषु सर्वेषु गुणत्वम् इति जातिः अथवा गुणत्वम् इति सामान्यं वर्तते इति वक्तुं शक्नुमः. एवमेव कर्मणि उत्क्षेपणं कर्म अथवा किम् अपक्षेपणं कर्म आकुञ्चनं कर्म इति एकाकारप्रतीतिः भवति चेत् तत्र तत्र कर्मत्वम् इति जातिः वर्तते इति आगच्छति. अवगच्छन्ति वा सर्वे? कोऽपि प्रश्नः?
क्षम्यतां महोदय, प्रतीति इति किं भवति उक्तवती?
ज्ञानं.
ज्ञानं प्रतीति एका कुत्र अस्ति? एका
अत्र नास्ति महोदय, तदर्थमेव उक्तवती. अग्रे पश्यामः. केवलम् अस्य पदस्य विवरणार्थम् उक्तवती. प्रतीति इति ज्ञानम् इति स्थापयन्तु मनसि. अस्तु, रूपं गुणः इति एकं ज्ञानमस्ति. शब्दरूपेण यदा विवरणं कुर्मः ज्ञानस्य तदा रूपं गुणः इति ज्ञानस्य आकारः, रसः गुणः इति ज्ञानस्य आकारः भवति. एकाकारः एकमेव आकारः अस्ति खलु एतेषाम्. अयं गुणः अयं गुणः अयं गुणः गुणः इति वक्तव्यं चेत् तत्र आकारः समानः. अवगच्छति वा महोदय? एवं कृत्वा गुणत्वम् इति जातिः सिद्ध्यति. एवमेव कर्मणि अपि. इदं कर्म इदं कर्म इदं कर्म उत्क्षेपणं कर्म अपक्षेपणं कर्म आकुञ्चनं कर्म एकरीत्या प्रतिपादनमस्ति खलु कर्म 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 इति उक्त्वा. तदेव एकाकारप्रतीतिः. तेन कर्मत्वम् इति सिद्ध्यति इति वदन्ति. तदेव एकाकारप्रतीतिः. एकविधदर्शनेन अपि च एकाकारप्रतीत्या इति दृष्टम् अस्माभिः जातिः सिद्ध्यति. बुद्धम्? अस्तु तर्हि हा, एतावत्पर्यन्तं सामान्यम् अथवा जातिः इत्युक्ते किम् इति ज्ञातवन्तः. इतः अग्रे गत्वा परम् अपरं सामान्यं किम् इति जानीमः. अग्रे विजया भगिनी पठति वा?
विजयराजन.
आमां
विजया. अहं पठामि भगिनि. सप्त अतिरिक्तजातिः इति निरूपणम् एतदेव
सत्यम्.
परन्तु एक आकारज्ञानं यथा गवादौ भवति तथा द्रव्यं सत् गुणः सन् कर्म सत् इति द्रव्यगुणकर्माणाम् अपि एकविधं ज्ञानं वर्तते. एवञ्च शाबालयेः इत्युक्ते
पठतु भगिनि प्रथमं परिच्छेदं समापयतु.
बाहुलेयः गौः इति एकविधज्ञानेन यथा सर्वेषु गोषु गोत्वं सिद्ध्यति तथा द्रव्यं सत् गुणः सन् कर्म सत् इति एकविधज्ञानेन द्रव्यगुणकर्मे कर्मसु अतिरिक्तं सामान्यं जातिः सिद्ध्यन्ति. सतः भावः धर्मः सत्ता अतिरिक्तजातिः पूर्वम् एव विवरणं करोमि वा?
आमां भगिनि, इत्येव अस्माकं पद्धतिः, पठतु अपि च खण्डशः विवरणं करोतु यद् पठितम्।
परन्तु एक आकारज्ञानम् एक आकारज्ञानम् अपि अपि वयं दृष्टवन्तः। एकार आकारम् आकारप्रीत्या इत्युक्ते व्यवहारः तत्र अस्ति, ज्ञानमपि ज्ञातुं शक्नुमः। गवाडौ भवति तथा द्रव्यं गौः इत्युक्ते तत्र गोतुम् अस्ति, ततः एव द्रव्ये सत् गुणः सन् कर्माणम् एतत् तत्र अस्ति। किमर्थं पुस्तके पुस्तकत्वम् अस्ति, तथा एव तत्र अस्तित्वम् अस्ति। एकविधं ज्ञानं वर्तते, एतत् ज्ञातुं शक्नोति। एवं च
वदामि, शाबलेयः इत्युक्ते यस्य यस्मिन् यस्यां गवि स्पाट्स् भवति खलु, वेरिगेटेड्। गौः केवलं श्वेतवर्णीया अथवा कृष्णवर्णीयः न भवति, मिश्रणं भवति किल, तदेव शाबलेयः। शाबलेयः गौः, बाहुलेयः इत्युक्ते कृष्णवर्णीयः गौः।
बाहुलेयः इत्युक्ते चत्वारङ्गपादः एतत् विषये तत्र
भगिनि शृणोतु यद् अहम् उक्तवती, शाबलेयः इत्युक्ते वर्णस्य कलर् इत्यस्य विषयः अस्तु। बाहुलेयः अपि कृष्णवर्णः इति अर्थः, शाबलेयः इत्युक्ते वर्णानां मिश्रणं भवति खलु, तदेव
कृष्णवर्णः श्वेतवर्णः इति ज्ञातुं तत्र ज्ञानं भवति। गौः इति एकविधज्ञानेन यथा सर्वेषु गोषु गोत्वं सिद्ध्यति तथा द्रव्ये सत् गुणः सन् कर्मे कर्मत्वमस्ति, सत् इत्युक्ते अस्तित्वमस्ति, एतत् ज्ञातुं शक्नुमः। एकविधज्ञानेन द्रव्य गुणकर्मसु अतिरिक्तं सामान्यधर्मः तत्र समानानां धर्मः सामान्यम् इति वयं ज्ञातुं शक्नुमः तत्र। अपि एतत् ज्ञानं ज्ञात्वा जातिः अपि वयं ज्ञातुं शक्नुमः, एतत् गौः जाति इति पुस्तके पुस्तकत्वम् अस्ति इति एतत् सर्वं ज्ञातुं शक्नुमः तत्र। सत्ता द्रव्ये तत्र अस्तित्वमस्ति, गुणे अपि अस्तित्वमस्ति, तत्र कर्मणि तत्र अपि सत्ता इति अस्तित्वम् अस्ति। यत्र यत्र अस्तित्वं कर्म अस्ति तत्र तत्र अस्तित्वम् अस्ति। खादनक्रिया कर्मक्रिया अस्ति चेत् तत्र खादनक्रिया इति कर्म तत्र भवति।
हा समीचीनं भगिनि, भवत्या यदुक्तं तत् सर्वं सम्यक् एव। अस्तित्वम् इति यद् वदति, वस्तुतः अत्र सत् इति अस्ति खलु, सत् इति पदं जानाति वा कीदृशं पदमस्ति इति? कोऽपि वदति?
सत्ता एव तत्र
समीचीनं,
सत्यं सत्यं सम्यक्। तर्हि अस् धातोः शत्रन्तरूपे सत् इति प्रातिपदिकम् आगच्छति, सत् इति नपुंसकलिङ्गे द्रव्यं सत्, गुणः इति पुल्लिङ्गपदं गुणः सन्, अपि च कर्म नपुंसकलिङ्गपदं। अस्तु भगिनि, वदन्ती अस्मि, कर्म सत् इति आगच्छति खलु, सत् सन् सत् पुनः एकाकारप्रतीतिः भवति, गुणः सन् कर्म सत् इत्युक्ते अत्र फुट्नोट् अपि अस्ति, पश्यन्तु, सत् इत्युक्ते विद्यते इति अर्थः, द्रव्यमस्ति, गुणः अस्ति, कर्म अस्ति, विद्यते, कालेन सम्बद्धम् इति अपि उक्तं। तर्हि तत्र चिन्ता मास्तु, सर्वं काले तिष्ठति इति एकम् अग्रे आगच्छति, कथमिति पश्येम। अस्तु, कालसम्बद्धप्रतीतिः अथवा ज्ञानमस्ति, द्रव्यं सत्, गुणः सन्, कर्म सत् इति, एतत् दृष्ट्वा अस्माकं मनसि यथा रूपं गुणः रसः गुणः शब्दः गुणः इति श्रुत्वा गुणत्वम् इति जातिः सिद्धा अभवत्, तद्वत् एतत् श्रुत्वा द्रव्यं सत् गुणः सन् कर्म सत् इति श्रुत्वा का जातिः सिद्ध्यति अत्र विजया भगिनी?
अस्तित्वमेव तत्र
अस्तित्वम् इति अस्य वदनस्य स्थाने सत्ता इति वदतु, यतोहि सत् इत्यस्य भावः अथवा धर्मः सत्ता अस्ति, यथा सुन्दरः इत्यस्य भावः सुन्दरता सत् इत्यस्य भावः सत्ता इति आगच्छति। अस्तु
भगिनि, तत्र तत्र सत्त्वम् इति अपि वक्तुं शक्नुमः वा, यथा पुस्तकत्वम् इति तादृशं सत्त्वम्?
अवश्यं भगिनि, वक्तुं समानः एव प्रत्यय समानप्रत्ययौ द्वौ तल् अपि च त्वम् इति धर्मम् अथवा स्वभावं सूचयतः इति। अस्तु,
एकः प्रश्नः, बाहुलेय इत्युक्ते एकमेव वर्णः वा?
बाहुलेयः इत्युक्ते ब्लाक् महोदय, कृष्णः इति।
ओ अस्तु, धन्यवादः।
शाबलेयः इत्युक्ते मिश्रितवर्णः इति अस्ति।
एकस्मिन् स्थाने अनेकाः वर्णाः सन्ति चेत् शबल।
सत्यं सत्यं महोदय,
एकस्मिन् स्थाने अनेकाः वर्णाः अस्ति सन्ति चेत् शबल, कोऽपि एकवर्णस्य तत्र उक्तिः न भवति, अनेकः शबलवर्णः।
सत्यं सत्यम् इत्येव अस्ति मिश्रणम्। अस्तु, तर्हि अत्र सत्ता इति एका जातिः अस्ति इति दृष्टवन्तः। इतः अग्रे गत्वा सत्ताम् उपयुज्य परत्वम्
भगिनि एकः प्रश्नः, एतत् सत्ता इति जातिः तद् अन्यस्मिन् पदार्थेषु नास्ति इति चिन्तनमस्ति वा, केवलं द्रव्ये गुणे कर्मे एव
नाम? न न, तथा नास्ति। अस्माकं ज्ञानं केवलं द्रव्यं सत् गुणः सत् कर्म सन् इति उदाहरणं दृष्टवन्तः, परन्तु सत्ता इति अभावं विहाय, वस्तुतः अभावः अपि अभावे अपि सत्ता अस्ति इति वक्तुं शक्नुमः। अस्तु, यतोहि अस्माकं ज्ञानानुगुणम् अथवा अस्माकं व्यवहारानुगुणं, व्यवहारः इत्युक्ते शब्दरूपेण ज्ञानस्य प्रतिपादनं, यदा वयं वदामः अभावः अस्ति अथवा अभावः सन् इति वदामश्चेत् तत्रापि सत्ता अस्ति। केवलं प्रदर्शनार्थम् एवम् उक्तवन्तः।
अस्तु, तादृशं वदति चेत् ते सर्वे एकमेव जातिः इति निरूपणं
सत्यं, सत्ता इति एका जातिः सर्वेषु अस्ति इति।
अस्तु,
अस्माकं ज्ञानस्य विषयः अस्ति द्रव्यं सत् गुणः सन् कर्म सत् इति अधुना। अस्तु
अस्तु,
हा, तद् आधारेण
अत्र एकः सन्देशः, अतिरिक्ता जातिः इत्युक्ते किम्?
अतिरिक्ता इत्युक्ते पृथक् इति, पृथक् जातिः, युनीक् युनीक् इति चिन्तयति।
धन्यवादः।
अस्तु, तर्हि इयं सत्ता, हा समीचीनं महोदय, इयं सत्ता इति जातिः त्रिषु अपि वर्तते इति आगच्छति।
अस्तु, धन्यवादः।
अस्तु, तर्हि अग्रे सरे
एकं सन्देहं भवति, तत्र अतिरिक्ता इत्युक्ते त्रिषु,
त्रिषु अपि अस्ति अतिरिक्ता जातिः इत्युक्ते, तत्र महोदय द्रव्ये द्रव्यत्वं गुणे गुणत्वं कर्मणि कर्मत्वम् इति जातयः दृष्टाः खलु, तद्वदेव सत्ता इति एका पृथक् पृथक् जातिः, अतिरिक्ता जातिः इत्युक्ते तादृश अर्थे, अतिरिक्तम् इति जानाति खलु, युनीक् अथवा यद् पूर्ववत् नासीत् तद्वद् सत्ता इति अतिरिक्ता जातिः।
मम अवगमनार्थं तत्र एकः प्रश्नः, पूर्वस्मिन् पुटे यदि एकस्मिन् उपरि गच्छत् नीलपुस्तके वयम् अत्र अत्र लिखित सर्वे अष्टाः गुणाः सन्ति इति वक्तुं शक्नुमः वा?
कुत्र गुणः पूर्वस्मिन् पुटे इत्युक्ते पुस्तकत्वं पृथ्वीत्वं
द्रव्यत्वं पृथ्वीत्वं द्रव्यत्वं नीलत्वं रूपत्वं गुणत्वम् उत्क्षेपणत्वं कर्मत्वं सर्वं मिलित्वा एकस्मिन् उपरि गच्छत् नीलपुस्तके सन्ति इति वर्णेन साधु वा
नीलपुस्तके किं किम् अस्ति इति भवतः प्रश्नः वा
न कोऽपि एकं नीलपुस्तकम् उत्क्षेपयति तस्मिन् समये वयं पश्यामः
समीचीनं महोदय अवगतम् नीलं पुस्तकम् इति अस्ति तस्मिन् उत्क्षेपणकर्म अपि अस्ति इति भवतः प्रश्नः खलु तत्सर्वम् अस्ति अष्टसामान्यानि अथवा अष्टजातयः यः अत्र प्रदर्शिताः सः सर्वाः सन्ति तत्र नीलपुस्तके इति अवश्यम्
अस्तु धन्यवादः
अग्रे गच्छेम तर्हि वसुप्रधा भगिनी अग्रे
सत्ताशब्दस्य निष्पत्ति वक्तुं शक्नोति वा
भगिनि अस् इति धातुः शत्रुप्रत्ययः प्रातिपदिकं सत् योगः तल् इति प्रत्ययः अस्तु सम्यक् अग्रे सरेम तर्हि वसुप्रदा भगिनी
भगिनी तत्र नीलपुस्तके किं किम् अस्ति अष्ट इति
जगन्नाथमहोदयस्य विवक्षा आसीत् यत् नीलपुस्तकम् उपरि क्षिपामश्चेत् उत्क्षेपयामश्चेत् नीलपुस्तकं तस्मिन् उत्क्षेपणकर्म इति तस्य विवक्षा
अस्तु अस्तु
तदा इमाः सर्वाः जातयः अथवा इमानि सर्वाणि सामान्यानि तत्र भवेयुः इति
अस्तु 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 सम्यक्
अग्रे गच्छेम तर्हि वसुप्रदा भगिनी
भगिनी सत्तायाः परत्ववर्णनम् इत्युक्ते
सत्यं
तथा च पूर्वस्मिन् चित्रे द्रव्ये गुणे कर्मणि च एका जातिः वर्धनीया सेवपरा जातिः परं सामान्यं परमित्यस्य यस्य अधिकरणानि सर्वेभ्यः सामान्येभ्यः अधिकानि सः अर्थः द्रव्यत्वं सर्वेषु द्रव्येषु वर्तते परन्तु गुणे नास्ति तत्र सत्ता वर्तते गुणत्वं सर्वेषु गुणेषु वर्तते परन्तु द्रव्ये नास्ति तत्रापि सत्ता वर्तते एवं कर्मत्वस्यापि एवं कर्मत्वस्यापि तथा च जगति क्षम्यतां भगिनि
शतद्रव्याणि एकसहस्रगुणाः पञ्चशतकर्माणि चेत् किं
चेत् द्रव्यत्वं गुणत्वं कर्मत्वम् इति सत्ता पूर्वम्
अस्तु अस्य विषये इतोपि किञ्चित् परिशीलयामः राधिका भगिनी प्रतिपादयति वा यद् वसुप्रदा भगिन्या पठितं
क्षम्यतां भगिनि, मम किञ्चित् क्लेशः अस्ति. अत्र उक्तवन्तः, वर्णनं दत्तवन्तः.
प्रायः भगिनि क्रमशः गच्छतु, तदा स्पष्टं भवति.
तथा च पूर्वस्मिन् चित्रे द्रव्ये गुणे कर्मणि च एका जातिः वर्धनीया, सैव पराजातिः परं सामान्यम्. तत्र पूर्वे वयं दृष्टवन्तः चित्रे द्रव्ये सत्ता अस्ति, गुणे सत्ता अस्ति, कर्मणि अपि सत्ता अस्ति इति वयं दृष्टवन्तः. तत्र परम् इत्यस्य यस्य अधिकरणानि सर्वेभ्यः सामान्येभ्यः अधिकानि स अर्थः. सर्वे सत्ता अस्ति इति एव अर्थः वा भगिनि?
हा, सा एव या जातिः वर्धिता अधुना, इत्युक्ते द्रव्यत्वम् अतिरिच्य, गुणत्वम् अतिरिच्य, कर्मत्वम् अतिरिच्य इतोपि एका जातिः अत्र आगता खलु, सत्ता इति. सा परा जातिः अथवा परं सामान्यं, सामान्यं नपुंसकम्, अतः परं सामान्यम्. भवती यदुक्तवती तत् स्थूलरीत्या सत्यमेव. परम् इत्यस्य को वा अर्थः इति चेत्, यस्य अधिकरणानि सर्वेभ्यः सामान्येभ्यः अधिकानि. सत्ता कुत्र कुत्र वर्तते अधुना अस्माकम् उदाहरणे?
द्रव्ये, गुणे, कर्मणि च.
तर्हि तस्य अधिकरणानि कानि? त्रीणि खलु, द्रव्यगुणकर्म. हा, परन्तु अग्रे पठतु. द्रव्यत्वं,
द्रव्यत्वं सर्वेषु द्रव्येषु वर्तते, परन्तु गुणे नास्ति, तत्र सत्ता वर्तते. तत्रैव मम क्लेशः अस्ति. द्रव्यत्वं सर्वेषु द्रव्येषु द्रव्यत्वम् अस्ति, परन्तु गुणे द्रव्यत्वं नास्ति, तत्र सत्ता इति नूतना जातिः वर्तते. तदेव अर्थः वा?
सत्यं, यत्र द्रव्यत्वं नास्ति तत्रापि सत्ता अस्ति इति खलु. गुणे द्रव्यत्वम् अस्ति वा? नास्ति, परन्तु गुणे सत्ता अस्ति वा? यतोहि अस्माकम् आकारः, प्रतीत्याः आकारकः गुणः सन् इति आसीत्, तर्हि गुणे सत्ता अस्ति वा?
अस्ति
इति कृत्वा यत्र द्रव्यत्वं नास्ति तत्रापि सत्ता वर्तते इति.
अस्तु, गुणत्वं सर्वेषु गुणेषु वर्तते, परन्तु द्रव्ये नास्ति, तत्रापि सत्ता वर्तते. एवं कर्मत्वस्यापि वयं दृष्टवन्तः, द्रव्ये सत्ता अस्ति, गुणे सत्ता अस्ति, कर्मणि सत्ता अस्ति. गुणे द्रव्यत्वं न भवति, तत्र तु सत्ता वर्तते एव. तादृशम् एव कर्मणि अपि सत्ता वर्तते. द्रव्यत्वं नास्ति, गुणत्वं नास्ति, अपि कर्मणि क्षम्यतां सत्ता भवति इति. तदनन्तरं तथा च जगति शतं द्रव्याणि, एकसहस्रं गुणाः, तादृशं सर्वं मिलित्वा सत्ता तु एकसहस्र अष्ट, क्षम्यतां भगिनि,
एकसहस्र षड् शतम्,
एकसहस्र षड्शतं सत्ता भवति इति उक्तवन्तः.
हा, वस्तुतः द्रव्ये, क्षम्यतां, जगति केवलं शतद्रव्याणि इति न, उदाहरणत्वेन स्वीकृतं तथा, तावदेव. यदि वयं स्वीकुर्मः शतद्रव्याणि, सहस्रगुणाः, अपि च पञ्चशतं कर्माणि सन्ति इति स्वीकुर्मश्चेत्, सत्ता एषु सर्वेषु वर्तते. तर्हि सत्तायाः स्थलं बृहदस्ति इति आगच्छति. अस्तु, एतद् मनसि भवेत्. अग्रे गत्वा अस्य आधारेण परमपरम् इति.
क्षम्यताम्, एकः प्रश्नः. सत्ता इति अस्धातोः सत्रान्तं किल? सत्ता सर्वेषु भवितव्यं न वा?
सर्वेषु अस्ति
अत्र द्रव्यत्वं गुणत्वं कर्मत्वम् इति
भगिनि अत्र अस्माकम् उदाहरणं किमस्ति इति चेत् द्रव्यं सत् गुणः सन् कर्म सत् अस्माकम् उदाहरणे इत्युक्ते ज्ञानम् अस्ति द्रव्यं सत् इति ज्ञानं तस्य शब्दरूपेण प्रतिपादनम् अस्ति द्रव्यं सत् शब्दरूपेण प्रतिपादनम् अस्ति गुणः सन् कर्म सत् अस्मिन्नेव प्रसङ्गे द्रव्यं सत् गुणः सन् कर्म सत् इत्यस्मिन्नेव प्रसङ्गे वयं परिशीलनं कुर्मः तावदेव सत् इति अपरेश् इति अपरेश
धन्यवादः धन्यवादः
अस्तु वसुप्रदा भगिनी अवगतं वा यत् पठितं भवत्या वसुप्रदा भगिनी तत्र किञ्चित् वदतु भगिनि तर्हि द्रव्यत्वं कति स्थलेषु अस्ति चित्रं दृष्ट्वा द्रव्यत्वं कति स्थलेषु इत्युक्ते कुत्र कुत्र सत्यं तर्हि द्रव्यत्वम् इत्यस्य अधिकरणानि शतम् इति गुणत्वस्य अधिकरणानि कियत् अस्ति कति
सहस्र
एकसहस्र कर्मत्वम् इत्यस्य पञ्चशतं परन्तु सत्तायाः अधिकरणानि कति सन्ति
एकसहस्रे षट्
षट्शतं
एकसहस्रे षट्शतं सप्त अस्ति
हा समीचीनं भगिनि अधिकरणानि सत्तायाः अधिकरणानि अधिकानि कस्य अपेक्षया द्रव्यत्वस्य अपेक्षया गुणत्वस्य अपेक्षया अपि च कर्मत्वस्य अपेक्षया इति आगच्छति
तर्हि भगिनि अत्र यत्र चित्रसङ्ख्या अस्ति द्वादश इति तस्मिन् तत्र तर्हि पुस्तके पुस्तकम् अस्ति पुस्तके सत्ता अपि जाती अस्ति नीलरूपम् इत्यस्मिन् अपि सत्ता अस्ति उत्क्षेपणकर्म इत्यस्मिन् अपि सत्ता अस्ति इति वक्तुं शक्नुमः वा
इति वक्तुं शक्नुमः यदा अस्माकं व्यवहारः एवं भवति पुस्तकं सत् नीलरूपं सत् उत्क्षेपणकर्म सत् इति व्यवहारः भवति चेत्
इत्युक्ते किं
व्यवहारः इत्युक्ते शब्दरूपेण किमपि प्रतिपादनम् यः व्यवहारः यद् शब्दरूपम् अपरेषां ज्ञानं जनयति सः एव व्यवहारः इति उच्यते यदि अस्माकं व्यवहारे पुस्तकं सत् नीलरूपं सत् अपि च उत्क्षेपणकर्म सत् इति अधुना वदामश्चेत् तत्रापि एवमेव विश्लेषणं कर्तुं शक्नुमः
नो चेत् तत्र नो चेत् तादृशजातिः तादृशी जातिः तत्र नास्ति अस्ति परन्तु वयं न वदामः
हा अस्ति अस्तित्वं तु अस्ति एव यदि वदामः वा न वदामः अस्तित्वं तु अस्ति एव परन्तु ज्ञानस्य विषयः नास्ति
तर्हि अत्र पुस्तके द्रव्ये तिस्रः इति अस्ति तर्हि तत्र चतस्रः इति प्रायः तादृशं स्यात्
हा वक्तुं शक्नुमः यदि अस्माकं ज्ञानस्य विषयः पुस्तकं सत् इति अस्ति चेत्
अस्तु अस्तु
इति अवश्यम् अस्तु
धन्यवादः भगिनि
अस्तु भगिनि अस्तु भगिनि भवती एव अग्रे पठतु
पठामि वा
तथा
च सत्तायाः अधिकरणानि सर्वसामान्येभ्यः अधिकानि इति सा परा अस्तु अत्र इदानीमेव वयं दृष्टवन्तः तत्र सत्तायाः अधिकरणानि सर्वत्र भवति द्रव्येषु वर्तते गुणेषु अपि वर्तते कर्मणिषु अपि वर्तते अतः तत्र तस्य अधिकरणानि सर्वत्र अस्ति इति कृत्वा सा पराजातिः इति अत्र दत्तमस्ति
परा इत्युक्ते मनसि भवेत् बृहति इति तावदेव अस्तु परा इत्युक्ते यत्किमपि किञ्चित् बृहत् अस्तु अग्रे पठतु भगिनि
द्रव्यत्वादीनां परापरत्वसाधनम् एवमेव व्यस्तक्रमेण न्यूनादिकरणचिन्तायां द्रव्यत्वस्य सत्तापेक्षया न्यूनादिकरणानि पृथ्वीत्व अपेक्षया अधिकानि पृथ्वीत्वं पृथ्व्याम् एव द्रव्यत्वं तु जलादौ अपि अस्ति अतः द्रव्यत्वं सत्तापेक्षया अपरं न्यूनेषु वर्तते पृथ्वीत्व अपेक्षया परम् अधिकेषु वर्तते एवं पृथ्वीत्वं द्रव्यत्व अपेक्षया न्यूनवर्ति घटत्व अपेक्षया अधिकवृत्ति घटत्वं पटे नास्ति तत्र पटत्वं वर्तते पटत्वं घटे नास्ति तत्र घटत्वं वर्तते परन्तु घटे पटे च पृथ्वीत्वं वर्तते अतः पृथ्वीत्वं सत्ताद्रव्यत्वाभ्यां न्यूनवृत्ति अपरं घटत्वपटत्वादिभ्यः अधिकवृत्ति परम् इदानीम् अत्र द्रव्यत्वादीनां परापरत्वसाधनं परापरत्वसाधनम् इत्युक्ते तत्र गुणस्य विषयः नास्ति खलु परम् अपरम् इत्यस्मिन् विषये एव
हा सत्यं भगिनि समीचीनमेव गुणेषु सर्वे जानीयुः यत् गुणेषु अपि परत्वम् अपरत्वम् इति द्वौ गुणौ स्तः तद् नास्ति केवलम् अत्र सामान्यस्य विषये अस्तु
अस्तु इदानीम् अत्र परम् अपरम् इत्युक्ते किम् इति अत्र दत्तमस्ति अत्र यस्य न्यूनाधिकरणं न्यून अधिकरणानि सन्ति तद् अपरं यस्य अधिक अधिकरणानि सन्ति तद् अपरम् इति अस्ति तर्हि अत्र एवमेव व्यस्तक्रमेण न्यूनाधिकरणचिन्तायां द्रव्यत्वस्य सत्तापेक्षया न्यूनाधिकरणानि पृथ्वीत्व अपेक्षया अधिकानि तर्हि इदानीमेव वयं दृष्टवन्तः पूर्वस्मिन् चित्रे तत्र सत्ता इत्यस्य अधिकरणानि सर्वेभ्यः सामान्येभ्यः तस्य अधिकरणानि सन्ति अधिकरणानि अस्ति इति कृत्वा तत्र सत्ता इत्यस्य अधिक अधिकरणानि द्रव्यस्य अपेक्षया द्रव्यस्य न्यूनाधिकरणानि एवमेव अत्र पृथ्वीत्व अपेक्षया द्रव्यत्वस्य अधिक अधिकरणानि पृथ्वीत्वस्य न्यून अधिकरणानि पृथ्वीत्वं केवलं पृथ्व्यामेव द्रव्यत्वं तु जलादौ अपि अस्ति इत्युक्ते अत्र वयं जानीमः तत्र नव द्रव्याणि सन्ति तत्र सर्वत्र द्रव्यत्वं वर्तते परन्तु पृथ्वीत्वं केवलं पृथ्व्यामेव अस्ति तर्हि इदानीम् अत्र द्रव्यत्वं द्रव्यत्वस्य अधिकानि अधिकरणानि पृथ्वीत्वस्य न्यून अधिकरणानि अतः अत्र द्रव्यत्वं सत्तापेक्षया अपरं न्यूनेषु वर्तते इदानीम् अत्र सत्तापेक्षया द्रव्यत्वम् अपरं यतोहि तत्र न्यूनाधिकरणानि सत्तायाः अधिकरणानि इति कृत्वा सत्ता परं द्रव्यत्वम् अपरं पृथ्वीत्व अपेक्षया पृथ्वीत्व अपेक्षया परं तर्हि द्रव्यत्वम् अपि पृथ्वीत्वं द्वयोः तत्र द्रव्यत्वं परं पृथ्वीत्वम् अपरं यतोहि द्रव्यत्वस्य अधिक अधिकरणानि पृथ्वीत्वस्य न्यून अधिकरणानि एवं पृथ्वीत्वं
समीचीनमासीत् एतावत् पर्यन्तं भवती सम्यक्तया उक्तवती अधुना पश्येम सर्वैः बुद्धं न वा इति रविमहोदय प्रतिपादयितुं शक्नोति वा
यस्य पदार्थस्य अधिक अधिकरणानि सन्ति तत् पदार्थः परम् अस्ति अन्यस्य अपेक्षया
यस्य अधिकानि अधिकरणानि समीचीनम् अस्तु हा इदानीं पृथ्वीत्वम् अपि च द्रव्यत्वं तयोः मध्ये तुलनां करोतु अस्तु पृथ्वीत्वम् अधिकेषु वर्तते वा अथवा द्रव्यत्वम् अधिकेषु वर्तते द्रव्यत्वम् अधिकेषु वर्तते इत्युक्ते जले तेजसि इत्यादिषु अतः
अतः द्रव्य द्रव्य परम द्रव्यत्वं परम अस्ति
हाँ द्रव्यत्वं परम सामान्यम् कस्य अपेक्षया
पृथ्वीत्वं तस्य अपेक्षया
हाँ पृथ्वीत्वस्य अपेक्षया द्रव्यत्वं परम अस्तु इदानीं द्रव्यत्वम् अपि च सत्ता अनयोः मध्ये तुलनां करोतु
सत्ता सर्वत्र अस्ति सत्तायाः अधिकरणानि अधिकानि सन्ति अतः सत्ता परम् अस्ति परं सामान्य सत्तायाः परं सामान्यम् अस्ति
सत्ता परं सामान्यं कस्य अपेक्षया
पृथ्वीत्वं च द्रव्यत्वम् अपेक्षया
बहु समीचीनं महोदय अतः अपरम् इत्युक्ते न्यूनेषु वर्तते इत्युक्ते न्यूनदेशवृत्तिः अपरं पृथ्वीत्वं तत्र किम् अपरमासीत् द्रव्यत्वस्य अपेक्षया यतो हि न्यूनेषु वर्तते इति परम् इत्युक्ते अधिकेषु वर्तते इत्युक्ते अधिकदेशवृत्तिः अस्तु एतद् बुद्धं चेत् अस्तु समापयतु परिच्छेदम् एवं पृथ्वीत्वम् अग्रे पठति वा महोदय एवं पृथ्वीत्वम् इति तस्मिन्नेव परिच्छेदे पश्यति तृतीयपङ्क्तिः
पृथ्वीत्वम् अपि अतः द्रव्यत्वम्
एवं पृथ्वीत्वं द्रव्यत्वापेक्षया न्यूनवर्ति पश्यति वा अस्तु अन्य कोऽपि साहाय्यं कुर्यात् सङ्गीता भगिनी पठति वा
एवं पृथ्वीत्वं द्रव्यत्वम् अपेक्षया न्यूनवर्ति घटत्व अपेक्षया अधिकवृत्ति घटत्वपटे नास्ति तत्र पटत्वं वर्तते पटत्वं घटे नास्ति तत्र घटत्वं वर्तते परन्तु घटे पटे च पृथ्वीत्वं वर्तते अतः पृथ्वीत्वं सत्ता द्रव्यत्वाभ्यां न्यूनवृत्तिः अपरं घटत्वपटत्वादिभ्यः अधिकवृत्तित्वं परम् पृथ्वीत्वं द्रव्यत्व अपेक्षया अपरम् अस्ति च किन्तु घटत्व अपेक्षया पृथ्वीत्व परम् अस्ति
बहु समीचीनं महोदय बहु सम्यक् घटत्वापेक्षया पृथ्वीत्वं परं किमर्थम्
घटे पृथ्वीत्वम् अस्ति किन्तु पृथ्वी सर्वत्र घटत्व नास्ति
हा बहु सम्यक् इति एव अस्ति इत्युक्ते पृथ्वीत्वम् अधिकवृत्ति कस्य अपेक्षया घटत्वापेक्षया अस्तु अग्रे
पटे घटत्वं नास्ति च पटे पटत्वमेव अस्ति किन्तु घटत्वं नास्ति तथा पटत्व अपि घटे नास्ति तत्र घटे केवल घटत्वमेव अस्ति किन्तु घटे च पटे च पृथ्वीत्वम् अवश्यं वर्तते अवश्यं अस्ति अतः
अतः पृथ्वीत्वं
पृथ्वीत्वं सत्तापेक्षया न्यूनवृत्ति अपरम् अस्ति
किन्तु घटत्वपटत्वादिभ्यः अधिकवृत्तिः इति बुद्धं खलु पृथ्वीत्वं सत्ता वदतु
यतः घटे अपि पृथ्वीत्वम् अस्ति, पटे अपि पृथ्वीत्वम् अस्ति, किन्तु घटे केवल घटत्वम् अस्ति च, पटे केवल पटत्वमेव अस्ति, अतः पृथिव्या पृथ्वीत्वं परं सामान्यम् अस्ति।
हा, बहु समीचीनमस्ति। तर्हि घटत्वपटत्वादिभ्यः तत्र पञ्चमी विभक्ति अस्ति, घटत्वं पटत्वं वृक्षत्वम् इत्यादिभ्यः पृथिवीत्वम् अधिकवृत्तिः इति कृत्वा परं सामान्यम्। परन्तु सत्ता अपेक्षया, द्रव्यत्वापेक्षया अपरं सामान्यं न्यूनवृत्ति इति। समीचीनमस्ति। कोऽपि प्रश्नः वा कस्य?
क्षम्यतां महोदय,
वदतु।
पूर्वस्मिन् पुटे अहम् अवगतवान् इति चिन्तितवान्, किन्तु द्वादश पुटं पठित्वा इदानीं तु मम सर्व बोधनं
पलायते। प्रश्नः कः वदतु?
पृथ्वीत्वं सत्ता द्रव्याभ्यां न्यूनवृत्ते अपरम्, अत्र कस्मिन् अपरमस्ति? पृथ्वीत्वे अपरम् अस्ति वा?
न, अपरं सामान्यम्। अपरम् इति सामान्यस्य विशेषणम्, अपरं सामान्यं, परं सामान्यं। प्रश्नः समीचीनः महोदय। तर्हि अपरं सामान्यम्, अपरत्वम् अस्ति सामान्ये, कस्य सामान्ये? पृथ्वीत्वम् इति सामान्ये। यदा कदापि अपरं सामान्यं, परं सामान्यम् इति वदामः, तत्र वस्तुद्वयमेव भवति अथवा सामान्यद्वयम् अवश्यं भवति। यतोहि अत्र एव पश्यामः खलु, पृथ्वीत्वं सत्तायाः अपेक्षया अपरं स्यात्, किन्तु घटत्वापेक्षया परम्। इन् रेफरेन्स् टु सर्वदा
पुनः वदतु, क्षम्यता।
पृथ्वीत्वं सत्तायाः अपेक्षया, सत्ता इति या जाति अस्माभिः दृष्टा पूर्वस्मिन् पुटे, सत्ता बहुषु वर्तते खलु, द्रव्ये, गुणे, कर्मणि। परन्तु पृथ्वीत्वं कुत्र वर्तते?
केवल पृथिव्यां, द्रव्ये, घटे, पटे च।
एकनिमिषः, केवलं पृथिव्यां। सः तदुत्तरं समीचीनमासीत्। घटः, पटः, वृक्षः, शरीरं सर्वं पृथिवी, एतेषु पृथ्वीत्वं वर्तते इति सत्यं। परन्तु सत्ता इति जातिः अपरत्रापि वर्तते खलु, गुणः, कर्मसु, गुणेषु, कर्मसु इत्यादिषु। तदर्थं सत्तायाः अधिकरणानि अधिकानि पृथिव्याः,
पृथिवी अपरं, सत्ता परम्। एतत् बुद्धम्।
परन्तु घटत्वम् इति स्वीकुर्मश्चेत् तत्र वैपरीत्यं भवति, पृथ्वी परं भवति तदा घटत्वस्य अपेक्षया इति एव वार्ता। बुद्धम्?
पृथ्वी परम् इत्युक्ते न्यूनम्, अपरम् इत्युक्ते बृहद् वा? न,
विपरीतं विपरीतम्। अपरम् इत्युक्ते न्यूनं, परम् इत्युक्ते बृहद् अधिकम्।
तदेव पूर्वस्मिन् पुटे अत्र आगत्य सर्वं मम बोधनं गच्छति।
न न, सम्यक् एव महोदय, भवान् यदुक्तवान् तत् सम्यक् एव खलु। परम् इत्युक्ते अधिकेषु वर्तते इति चिन्तयतु, परमात्मा बृहत् इति खलु, जीवात्मा लघु, तादृशं किमपि मनसि भवेत् तदा परम् इत्युक्ते बृहत् इति आगच्छति।
बृहत् अधिकरणता अधिको अस्ति तत्र,
परं
तद् अपरं वा? परम् अधिकरणं, तत् परम्। तत्परम् अत्र पृथिव्यां पृथ्वीत्वमेव अस्ति, एतस्मात् अपरं वा?
कस्य अपेक्षया इति वक्तव्यं महोदय, द्रव्यत्वम् इति स्वीकरोतु। तत्र द्रव्यत्वं जले अस्ति, तेजसि अस्ति, आकाशे अपि अस्ति, बहुत्र अस्ति किल। सर्वदा कस्य अपेक्षया इति चिन्तयतु, द्रव्यत्वस्य अपेक्षया पृथ्वी अपरम् इत्युक्ते न्यूनवृत्ति, न्यूनेषु वर्तते। परन्तु घटत्वस्य अपेक्षया पृथ्वीत्वं परम् अधिकेषु वर्तते। अस्तु, सर्वदा कस्य अपेक्षया इति चिन्तनीयं, परम् इत्युक्ते अधिकम्, अपरम् इत्युक्ते न्यूनम् इति मनसि भवेत्।
परम् अधिकम् अपरम् अस्तु धन्यवादः.
अस्तु समीचीनम्. अस्तु सङ्गीता भगिनी अग्रे.
अस्तु भगिनि पठामि. घटत्वादी जात्य अपेक्ष जाति अपेक्षया न्यूनवृत्तिः जातिः नास्ति इति घटत्वम् अपरजातिः इति उच्यते. सर्वमेतद् बुद्धौ निधाय मूले उक्तं परम् अपरं चेति द्विविधं सामान्यं. परं सत्ता अपरं पटत्वादि पृथिवीत्वादि पर अपरम् इति तदर्थः ततः नित्यद्रव्यवृत्तयोः.
भगिनि तावत्पर्यन्तं ततः इति अग्रिमविषयः तावत्पर्यन्तं प्रतिपादयतु.
अस्तु. घटत्वादि जाति अपेक्षया न्यूनवृत्तिः जातिः नास्ति इति घटत्वम् अपरजातिः इति घटत्वम् अपरजातिः इति उच्यते. घटत्वादि जाति अपेक्षया न्यूनवृत्तिः जातिः इति घटत्वम् एतत् न अवगन्तुं न शक्नोमि. घटत्वादि जाति अपेक्षया
घटत्वम् इति जातिः एकं सेट् इति चिन्तयतु. अस्तु घटत्वम् इति सब्सेट् अस्ति. घटत्वं सब्सेट् अस्ति कस्मिन्? पृथ्वीत्वम् इत्यस्मिन् सूपर् सेट् अस्ति. पुनः पृथ्वीत्वं हा पृथ्वीत्वं सब्सेट् अस्ति. कुत्र? द्रव्यत्वम् इति सूपर् सेट् अस्ति. तर्हि सर्वेषाम् अपेक्षया घटत्वजातिः न्यूनवृत्तिः खलु?
न्यूना भवति. अस्तु.
हा ततः अपेक्षया इतोपि न्यूनं किमपि नास्ति अस्माकम् उदाहरणे इत्येव उक्तं. घटत्वादिजात्यपेक्षया न्यूनवृत्तिजातिर्नास्ति. अवगच्छति वा?
न अवगच्छामि भगिनि. घटत्वादि जाति अपेक्षया न्यूनवृत्तिः जातिः नास्ति.
घटत्वं
न अवगच्छामि.
घटत्वं कुत्र वर्तते?
घटत्वं
घटे
पृथिव्य
पूर्वस्मिन् परिच्छेदे किम् उक्तं? घटत्वं पटे नास्ति, केवलं घटे वर्तते किल?
घटे वर्तते. अस्तु अस्तु.
पृथ्वीत्वं कुत्र वर्तते?
घटत्वं घटे वर्तते. घटे अपि वर्तते, पटे अपि वर्तते.
किं?
पृथ्वीत्वं.
पृथ्वीत्वं. तर्हि पृथ्वीत्वं स्थलद्वये, घटत्वम् एकस्मिन् स्थले खलु?
अस्तु अस्तु.
अतः घटत्वं न्यूनवृत्तिः.
आम्.
पुनः तस्य अपेक्षया इतोपि न्यूनवृत्तिः जातिर्नास्ति खलु अस्माकम् उदाहरणे? द्रव्यत्वं पृथ्वीत्वं घटत्वं
पृथ्वीत्वम् अपेक्षया घटत्वं न्यूना भवति.
सत्यं.
न्यूनं भवति.
सत्यं. घटत्वापेक्षया न्यूनवृत्ति इतोपि नास्ति, जातिर्नास्ति इति कृत्वा घटत्वम् अपरजातिः इति उक्तमत्र.
अस्तु भगिनि. पृथ्वीत्वम् अपेक्षया घटत्वं न्यूना भवति. घटत्वजाति अपेक्षया किमपि न्यूनं न भवति इति चेत् घटत्वम् अपरजातिः भवति.
हा समीचीनम्. अपरजातिः अथवा अपरं सामान्यम् इति वक्तुं शक्यते.
अपरं सामान्यं भवति. अस्तु. सर्वम् एतद् बुद्धौ निधाय मूले उक्तं परम् अपरम् एतत् सर्वं घटत्व अपेक्षया पृथ्वीत्वं पृथ्वीत्व अपेक्षया द्रव्यत्वम् इति एतत् सर्वं मनसि निधाय एव प्रथमे उक्तं परम् अपरं चेति सामान्यं द्विविधम् इति पूर्वे उक्तम्. परं सत्ता अपरं पटत्वादि पृथिवीत्वादि पर अपरम् इति तदर्थः. परं सत्ता अपरं पटत्वादि अन्यत् सर्वमपि अपरं सत्ता एव परम् इति वयं ज्ञातव्यम्.
बहु सम्यक् इत्येव
पटत्वादि पृथिवीत्वादि द्रव्यत्वादि अन्यत् सर्वम् अपि अपरं सत्ता एव परम् इति वयं ज्ञातव्यम्.
हा सत्तायाः अपेक्षया अन्यत् सर्वम् अपरं
सत्तायाः अपेक्षया
खलु सत्तायाः अपेक्षया सर्वम् अपरं परन्तु तत्र मध्ये सत्ता इति बृहती जातिः अतिन्यूना जातिः घटत्वं किन्तु तस्य मध्ये द्रव्यत्वमस्ति पृथ्वीत्वम् अस्ति तत्र पृथिव्यादि द्रव्यत्वं पृथ्वीत्वम् इति परमपि भवितुमर्हति अपरमपि भवितुमर्हति किल सत्तायाः अपेक्षया द्रव्यत्वम् इति अपरं परन्तु पृथिवीत्वम् अपेक्षया द्रव्यत्वम् इति परम् अभवत् इति वार्ता अस्ति अत्र परमपरम् इत्यस्य सः एव अर्थः न्यूनदेशवृत्तिः अपरम् अधिकदेशवृत्तिः परम् इति मनसि भवेत् अधिकं परं
द्वयोः अपेक्षया द्वयोः अपेक्षया एव परम् अपरम् इति किम् इति वक्तुं शक्नोमि
सत्यं
शक्नुमः वयम्
अवश्यम् अस्तु अस्तु तर्हि हा प्रश्नः अस्ति वा भगिनि
न भगिनि अग्रिमे पठामि वा इति
अग्रे अन्य कोऽपि पठति
भगिनि एकः प्रश्नः अस्ति अत्र एतादृश परम् अपरम् इत्यस्य प्रयोजनं किम्
प्रयोजनं किम् इति अहमपि न जानामि परन्तु न्यायशास्त्रे तादृशविभजनमस्ति सामान्यस्य
अस्तु
अन्येषां किमपि चिन्तनमस्ति वा जयन्ती भगिनि अस्ति चेत्
भगिनि अहं चिन्तयामि लाजिकल् रीसनिङ्ग् इति
हा न्यायः इति सर्वं लाजिकल् रीसनिङ्ग् एव किन्तु परमपरम् इत्यस्य
सामान्यतया वदामः खलु आप्टिट्यूड् मध्ये ग्रेटर् देन् ए इस् ग्रेटर् देन् बि इस् ग्रेटर् देन् सि देन् वाट् इस् द रिलेशन्शिप् बिट्वीन् ए अण्ड् सि इफ् ए इस् ग्रेटर् तादृशविषयाणि अवगन्तव्यम् तादृशरूपेण इति चिन्तयामि
हा तावदेव भगिनि विद्या भगिनी तावदेव वक्तुं शक्नुमः अधुना नवद्रव्याणि इति उक्तं खलु तस्य प्रयोजनं किम् इति पृच्छामश्चेत् तत्र आवश्यकता आसीत् इति
एतेषां प्रयोजनं भवति
किं महोदय
वेदान्तशास्त्रे कस्य पक्ष उत्तरो भवति एतादृशं निर्णयितुं ते उपयुज्यन्ते
प्रायः अस्तु कम्पेरिसन् अथवा यथा सुमित्रा भगिनी उक्तवती
हौ डु यु कन्क्लूड् समथिङ्ग् फिलोसफिकलि
सत्यं तदर्थमपि भवति वस्तुतः न्यायशास्त्रमेव तथा अस्ति लाजिकल् रीसनिङ्ग् अस्तु जगति यत्किमपि अस्ति तत् तर्केण तर्कस्य माध्यमेन विभजनं विवरणं कर्तुम् इच्छन्ति तावदेव
प्रश्नः अस्ति भगिनि
हा वदतु
नीलघटः इति स्वीकुर्मः चेत् तत्र नीलत्वम् अपि अस्ति घटत्वम् अपि अस्ति तत्र परम् अपरं कथं वक्तुं शक्नुमः
कस्य अपेक्षया इति चिन्तनीयम्
नीलत्वं घटत्वं घटत्व अपेक्षया इति चिन्तयतु
हा तत्र किमपि वक्तुं न शक्नुमः यतोहि उभयोः अधिकरणं किम् भगिनि तत्र एवं चिन्तयितुं शक्नुमः नीलः घटः इति घटे घटत्वम् अस्ति नीले नीलत्वम् अस्ति नीलरूपे नीलत्वम् अस्ति परन्तु घटद्वयं भवति इति चिन्तयतु घटद्वयम् अस्ति चेत् एकः नीलः घटः अपरः रक्तः घटः इति चिन्तयतु तथा वक्तुम् इच्छति चेत् घटत्वं द्वयोः घटयोः वर्तते खलु
परन्तु नीलत्वं तु एकेन घटे एव भवति
सत्यं तथा चिन्तनं कुर्मः चेत् परमपरम् इति भवति किन्तु सामान्यतया यावत् अहं जानामि एवं सेट् अथवा सब्सेट् रिलेशन्शिप् भवेत् इत्युक्ते सत्ता द्रव्यत्वं गुणत्वं तथा
अस्तु अस्तु धन्यवादः
समीचीनं. तर्हि अनेन सामान्यम् इति पदार्थस्य अस्माकं किञ्चन विश्लेषणं जातम्. अस्तु, अग्रिमपदार्थः विशेषः इति आगच्छति. तत्र का सरला भगिनी पठति वा अग्रिमपरिच्छेदम्?
आं भगिनि, नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव इति विशेषः निरूपितः. गुणकर्मणोः निरूपणावसरे पौर्वापर्यविचारे कर्म केचन आचार्याः न अङ्गीकुर्वन्ति इति उक्तम्. विशेषविषये इत्थं वक्तव्यम्, अयं वैशिष्ट्यै एव अङ्गीक्रियते, न्यायकैः च अनुमन्यन्ते, अन्येषु शास्त्रेषु तस्य खण्डनम् एव अस्ति. एवं विधोऽयं विशेषपदार्थ इति सर्वजनसिद्धजातिपदार्थानन्तरं निरूपितः. इदानीं नित्यद्रव्यवृत्तयोः विशेषत्वनन्ता एव नित्यद्रव्यवृत्तिः यत्र अस्ति तत् यथा भवती गत वर्गे उक्तवती नित्यद्रव्याणि सन्ति आकाश दिक् काल आत्मा मनः. विशेषत्वा अनन्ता अस्ति, तेषां विशेषत्वमस्ति, तस्य अनन्ता विशेषा अपि सन्ति नित्यं तस्मिन् नित्य द्रव्यवृत्ति अस्ति इति विशेषनिरूपतः. इदानीम् अहं विशेषपदार्थस्य निरूपणं कुर्मः. गुणकर्मणो निरूपणावसरे पौर्वापर्यविचारे कर्म केचन आचार्य न अङ्गीकुर्वन्ति इति उक्तं. यथा वयं पूर्वं गुणकर्म इति गुणकर्मतयोः यदि विचारं पठितवन्तः, तत्र दत्तम् अस्ति केचन आचार्याः अपूर्व आचार्य नवीन नैयायिकाः तेषां कर्म न अङ्गीकुर्वन्ति. तत् अतः तस्य विश्लेषणं अस्मिन् ग्रन्थे न दत्तम् अस्ति.
एकनिमिषः भगिनि, पूर्वापर्य पौर्वापर्य इत्यस्य अर्थः कः जानाति वा?
पूर्वपरविचारे
तत्र अस्माभिः दृष्टं यत् गुणः इति प्रथमतया निर्दिष्टः, तदनन्तरं कर्म.
कर्म वयं न कारण केचन आचार्याः कर्मस्य पदार्थ इव न स्वीकुर्वन्ति.
समीचीनम्.
विशेषविषये इत्थं वक्तव्यम्. इदानीं विशेषविषये किं वक्तव्यम् अस्ति, अयं वैशिष्ट्यै एव अङ्गीकुर्वन्ति. वैशिष्टिकाः विशेषपदार्थ स्वीकुर्वन्ति, न्यायिके अपि तस्य विशेषपदार्थ मन्यन्ते, अन्येषु शास्त्रेषु तस्य खण्डनमेव अस्ति. किन्तु अन्यशास्त्रेषु अहं न जानामि केषु शास्त्रेषु विशेषस्य खण्डनम् अस्ति. एवं विधो अयं विशेषपदार्थ इति सर्वजनसिद्धजातिपदार्थानन्तरं निरूपितः. सर्वजनसिद्धजातिपदार्थ इत्युक्ते यथा वयम् इदानीं पठितवन्तः, सामान्यम् अस्ति सर्वजनसिद्धजाति, सामान्यं सर्वानां धर्म सामान्यं, तदनन्तरम् इदानीं विशेषपदार्थस्य निरूपणं भवति अधो भागे.
बहु समीचीनमस्ति भगिनि, सम्यक् सर्वं भवत्या उक्तं. विशेषः इति पदार्थः वैशेषिकैः प्रतिपादितम्. अस्तु, नैयायिकाः तस्य मतं स्वीकुर्वन्ति इति. सम्यक् भगिनि, तत्र फुट् नोट् इति अस्ति, किञ्चित् पठति वा तत्र?
भगिनी, एकः प्रश्नः अत्र, क्षम्यताम्, अत्र पौर्वापर्य इति भगिनी उक्तवती, पूर्वपर, तत्र पौर्व इति कथं
भावः?
पूर्वस्य भावः पौर्वः इति वा? परस्य परस्य भावः.
एकनिमिषः, विद्या भगिनी वदतु.
परस्य भावः तदनन्तरं तत्र पर्यः इति वा? पर्यः इति वा?
पौर
पौर्वपौर्य इत्युक्ते नदीमूलं ऋषिमूलम् इति न.
एकनिमिषः तथा किमपि नास्ति. सुन्दरः सौन्दर्यम् अस्ति खलु भगिनि. पूर्वः पौर्व परः पर्य तावदेव.
भावः अस्तु. धन्यवादः भगिनि.
विजया भगिनी अत्र तावदेव अस्ति भगिनि. भावः पूर्वपर तस्य पौर्वापर्य इति भावः अस्ति तावदेव.
पौर्वापौर्य इति अहं मन्ये एतत् विषये नदीमूलं ऋषिमूलम् एतत् किं पूर्वम् आगच्छति अपरं किम् आगच्छति इति न द्रष्टव्यम्. एतदेव पौर्वापौर्यं विचारः तत्र
हा अपरेषु शास्त्रेषु न कुर्वन्ति इति. परन्तु अत्र वेरि सिम्पल् अस्ति. सुन्दरः सौन्दर्यम् इति यथा तद्वत् पूर्वः पौर्वम् अस्तु. तस्य विचारे कृते अस्माभिः गुणः इति पूर्वं दृष्टं, कर्म इति परम् अनन्तरं दृष्टं, तावदेव मनसि भवेत् अस्तु. सरला भगिनी फुट् नोट् इति पठतु कृपया.
कणादः वैशेषिक शास्त्र प्रणेता आचार्यः कणादवैशेषिकशास्त्र आचार्यः अस्ति वैशेषिकशास्त्रेषु. तत् प्रणीतं वैशेषिकशास्त्रं गौतमप्रणीतं न्यायशास्त्रं च समीन्य न्यायशास्त्रपाठनं प्रवर्तते. प्रणीतमिति निरूपितम् इत्युक्ते यत् वैशेषिकशास्त्र कणाद वैशेषिकशास्त्रे निरूपणं करोति तदपि गौतमऋषि न्यायशास्त्रे सामान्यतयाः विशेषस्य निरूपणं करोति.
सत्यं भगिनि. न्यायशास्त्रस्य केचन सिद्धान्ताः ततः वैशेषिकशास्त्रात् स्वीकृताः इति. प्रथमं कणादमहर्षिणा वैशेषिकशास्त्रम् इति प्रणीतं, तदनन्तरं गौतमप्रणीतं न्यायशास्त्रमस्ति. तस्य सम्मिलनमेव अत्र वयं पठामः न्यायशास्त्ररूपेण. अस्तु, एतावता तर्हि विशेषाः अनन्ताः इति उक्तम्, अपि च नित्यद्रव्ये वर्तन्ते इति उक्तम्. तद् नित्यद्रव्यं किम् इति अग्रे द्रष्टव्यम्. अपि च यथा सामान्यं सङ्ख्यामपि वदन्ति खलु, नवद्रव्याणि, चतुर्विंशतिगुणाः, पञ्चकर्माणि, अपि च किं सामान्यं द्विविधम् इति यथा वदन्ति, तद्वत् अत्र विशेषाः अनन्ताः इति उक्तं. तेषां सङ्ख्या तदेव अस्ति, सा एव अस्ति. अनन्ताः इत्युक्ते अजस्राः. किमिति किमर्थमिति अग्रे पश्येम.
भगिनी, अत्र नित्यद्रव्यवृत्तयोः इति अस्ति, तत्र वृत्तयोः इत्युक्ते अत्र
नित्यद्रव्यवृत्तिः इति एकवचने
वृत्तिः, अत्र वृत्तिः इत्युक्ते
वृत्तिः इत्युक्ते आधेयः. वृत्तिः इत्युक्ते नित्यद्रव्ये वर्तते इति चिन्तयतु.
नित्यद्रव्ये वर्तते, ओ विशेषः नित्यद्रव्ये वर्तते इति.
सत्यं. वृत्तयः इति बहुवचने, तत्र विसर्गसन्धिः जातः खलु, वृत्तयो तावदेव.
अस्तु अस्तु, धन्यवादः.
समीचीनम्. अग्रे
गच्छति विशेषास्तवन् विशेषाः अनन्ताः इति खलु, तत्र तद् समस्तपदं कथं
विशेषाः इति विसर्गः अस्ति अन्ते, तदनन्तरम् अनन्ताः, विशेषाः तु अनन्ताः इति.
विशेषाः तु अनन्ताः.
तर्हि विसर्गस्य स्थाने सकारः आगतः, विशेषास्तु अनन्ताः, तु अपि च अनन्ताः, तयोः मध्ये यण् सन्धिः. विशेषास्तु अनन्ताः, विसर्गसन्धिः, तदनन्तरं यण् सन्धिः इति. अस्तु, अग्रे सव्यमहोदय पठति वा.
आं भगिनि. उदाहरणेन विशेषपदार्थवर्णनम्. एतत् साधनाय साम्प्रदायिकाः एवमाहुः. एकः पाषाणः द्विधा खण्डितः, तयोः साकलयोः क एवं ख इति संज्ञा कृता. ततः कसकलस्य द्वे शकले साधिते, तयोः क्रमेण ग एवं घ इति संज्ञे कृते. तयोरपि गसकलं गृहीत्वा तस्य द्वे सकले, तयोरपि सकलम् एकम् आदाय द्वे सकले इति एवंविध सकलपरम्परा कुत्रचित् स्थगनीया। को अर्थः? एकं तादृशं सकलं स्वीकर्तव्यं यस्य पुनः सकलं न भवति। तच्चरमं सकलमेव परमाणुः इत्युच्यते। हा, उदाहरणत्वेन अत्र उदाहरणेन विशेषपदार्थवर्णनमस्ति, उदाहरणमत्र दत्तमस्ति। एतत् साधनाय इत्युक्ते उदाहरणं दत्त्वा ते साम्प्रदायिकाः एवं वदन्ति, एवम् आहु इत्युक्ते वदन्ति। तर्हि एकः पाषाणः द्विधा खण्डितः, पाषाणः वयं जानीमः, एकः पाषाणः नयामः एवं भागद्वयं कुर्मः, इदानीं द्विधा खण्डितः भागद्वयं कुर्मः। तयोः साकलयोः इत्युक्ते यदा वयं भागद्वयं कुर्मः, एकं खण्डं तस्य नामं दद्मः क इति, एवं द्वितीयभागम् एवं भवति तस्य नामं वदामः ख इति संज्ञा कृता, इत्युक्ते नामकरणं कृता साकलद्वयोः, एकं क द्वितीयं ख। ततः क सकलस्य द्वे सकले साधितः। इदानीं किं कुर्मः? यत् क सकलः इति अस्ति, तदनन्तरं पुनः क सकलस्य भागद्वयं कुर्मः, एवं तयोः क्रमेण ग एवं घ इति संज्ञीकृते, इत्युक्ते क सकलस्य भागद्वयं कुर्मः चेत् तदनन्तरं भागद्वयं यः भवति तस्य एकस्य नाम ग, अनन्तरं द्वितीयभागस्य नाम घ इति नामकरणं कुर्मः। तयोरपि ग सकलं गृहीत्वा तस्य द्वे सकले तयोरपि सकलम् एकमादाय द्वे सकले इति एवंविध सकलपरम्परा कुत्रचित् स्थगनीया। इत्युक्ते ग सकलम् इदानीं स्वीकुर्मः, तदनन्तरं पुनः भागद्वयं कुर्मः, तत्र च छ इति नामकरणं कुर्मः, पुनः च सकलं नयामः, भागद्वयं कुर्मः, तथ इति कुर्मः इति अग्रिमपुटे चित्रमपि तत्र दत्तमस्ति। तर्हि एवमेवं कुर्मः, तथ नयामः, तत्र पाफ अपि कुर्मः, भागद्वयम् एवमेवं बहुवारं करिष्यामः चेत् कुत्रचित् एवं स्थगनीया भवति। इत्युक्ते पाषाणस्य आकारः एवं स्थूलं भवति चेत् तदनन्तरं तत्र एवं खण्डद्वयं न कर्तुं शक्नुमः। तर्हि तत् वदति, को अर्थः इत्युक्ते एकं तादृशं सकलं स्वीकर्तव्यं यस्य पुनः सकलं न भवति, इत्युक्ते भागं पुनः न कर्तुं शक्नुमः, तत् बहु सूक्ष्मं भवति, भागद्वयं पुनः न भवति। एवं वयं जानीमः, तत्र विज्ञानसम्बन्धे वयं पठितवन्तः अपि, विज्ञानं तथापि वदति तत् चरमम् इत्युक्ते अन्तिमं पुनः भागं कृत्वा अन्तिमं यदा वयं गच्छामः तत्र सकलम् एव यत् अवशिष्यते तत्र तस्य नामं परमाणुः इति उच्यते। इत्युक्ते यत्र भागं कर्तुं न शक्नुमः तर्हि तस्य नामं भवति परमाणुः इति अस्ति।
हा हा, बहु समीचीनमस्ति महोदय। तर्हि परमाणुः इत्युक्ते किम् इत्यस्य अत्र विवरणं, यस्य पुनः शकलम् अथवा भागं न कर्तुं शक्नुमः तदेव परमाणुः। अपि च परमाणुः इति नित्यद्रव्यं, भवन्तः चिन्तयेयुः किमर्थं विशेषस्थले परमाणुः इति आगतं। परमाणुः इति नित्यद्रव्यम्, अधुना पश्यामः विशेषः परमाणु अन्नयोः कः सम्बन्धः इति। अस्तु, अग्रे सुमित्रा भगिनी पठति वा?
आं भगिनि। तत्र कथं न्यकः पाषाणखण्डः अनेभ्यः पाषाणखण्डेभ्यः भिन्नः इति वयं ज्ञातुं किञ्चित् प्रभवामः। कुतः? तस्य यौ अवयौ घ ताभ्यां क एव उत्पन्नः, अन्यस्य पाषाणखण्डस्य अन्ये अवयवाः न तु गाघौ. शाकलः भिन्नः
वाक्यशः पठित्वा किञ्चित् प्रतिपादयतु.
तत्र कसंज्ञकः पाषाणखण्डः अन्येभ्यः पाषाणखण्डेभ्यः भिन्नः इति वयं ज्ञातुं प्रभवामः. एकैकपङ्क्तिः एकैकभिन्नः इति ज्ञातव्यम्. इत्युक्ते घ घ इति खतः उत्पन्नः, तयोः भिन्नः इदानीम्.
सत्यम्. अत्र किम् अस्ति इति चेत् क संज्ञकः नाम क नामकः, क इति नाम नामकरणं तावदेव यथा सभ्यमहोदय उक्तवान्. क नाम पाषाणखण्डः अस्ति इति चिन्तयतु. अस्तु, अपरत्र ख महाप्राण ख ख नाम पाषाणखण्डः अस्ति. वयं वयं कथं जानीमः क संज्ञक पाषाणखण्डः ख संज्ञक पाषाणखण्डात् भिन्नः इति कथं जानीमः? तत् पठतु. तस्य कुतः किमर्थं, तस्मात् अनन्तरम् उत्तरमस्ति.
तस्य यौ अवयौ ग घ ताभ्यां क एव उत्पन्नः.
अधोभागे चित्रं पश्यतु. क पाषाणस्य अवयवौ कौ?
ग घ इति.
अस्तु, तयोः मेलनेन क पाषाणखण्डः किल. अन्तिमवाक्यं पठतु.
अन्यस्य पाषाणखण्डस्य अन्ये अवयवाः न तु गाघौ. अन्यत् पाषाणखण्डः घ तः छ छ इति, ते गाघौ इति न स्वीकुर्वन्तु इति.
भिन्नः अस्ति खलु, यतोहि अवयवः भिन्नः.
भिन्नः
क पाषाणस्य अवयवः ग घ, इदानीं ख इति ख इति पाषाणं स्वीकरोमि. अस्तु, नूतनं तस्य प फ इति भवतु. तर्हि न्यायशास्त्रे सर्वे पदार्थाः परस्परभिन्नाः. किमर्थं किमर्थं चेत् तत्र कारणम् इदमेव, अवयवौ भिन्नौ अथवा अवयवाः भिन्नाः. अस्तु, तर्हि ग पाषाणस्य अवयवौ कौ भगिनि?
घ पाषाणस्य अवयवः छ छ एव.
स्वपाषाणस्य
तथा
तथा इत्युक्ते एकं पाषाणखण्डं स्वीकृत्य खण्डं खण्डं कृत्वा कृत्वा स्वपर्यन्तं गतवन्तः इति. फुट्नोट् इति पठतु.
अयं च भेदः लोकसिद्धौ अपि निष्कृष्ट निष्कृष्टतया अनुपदमेव अभावनिरूपणे वक्ष्यते.
इत्युक्ते अयं लोकसिद्धः इत्युक्ते एकः अपरस्मात् भिन्नः इति लोकसिद्धः, यः कोऽपि पदार्थः भवतु. इतोपि चिन्तनार्थम् अभावस्य निरूपणं यदा भवति तदा वदामः इति. तत्र वयं ज्ञातुं शक्नुमः उभयोः पदार्थयोः भेदः इत्युक्ते किम् इति. तत्र अग्रे उच्यते, अग्रे वक्ष्यते भेदः इत्युक्ते कः इति अग्रे उच्यते. परन्तु एतावत्पर्यन्तं मनसि भवेत् यत् यस्य अवयवाः भिन्नाः ते परस्परभिन्नाः तावदेव. समीचीनं. किञ्चिदेव अग्रे सरे वा. तर्हि भानुचैतन्यमहोदय अस्ति वा?
भगिनि, एकः प्रश्नः अस्ति. अत्र परमाणुः इति अस्ति. परमाणुः सर्वेषु द्रव्येषु चरमभागः अस्ति वा?
हा, सत्यं भगिनि, इति अग्रे आगच्छति.
ओ अस्तु,
अग्रे तस्यैव उल्लेखः क्रियते, चरमभागः एव. समीचीनम्. कः अस्ति अग्रे? भानुचैतन्यमहोदय.
भगिनि, निष्कृष्टतया तस्य अर्थं किं भवति?
गभीरतया,
अस्तु.
निष्कर्षः इत्युक्ते यत्किमपि वयं रिजल्ट् रूपेण प्राप्तुं शक्नुमः तदिति.
अस्तु
अस्तु भानुचैतन्यमहोदय. अस्ति भानुचैतन्यमहोदय इति, नो चेत् जगन्नाथमहोदय अग्रे कृपया.
एते परस्परं भिन्नम् इति वयं ज्ञातुं शक्नुमः कथं? प्रत्येकम् अवयवभेदेन. अस्तु कस्यचित्
महोदय प्रथमतया भवेत् इति पर्यन्तं पठतु.
अस्तु. तथा च यस्य यस्य अवयवाः वर्तन्ते तस्य तस्य भेदज्ञानम् अवयवभेदेन भवति. परन्तु चर्मशकलस्य परमाणोः यस्य अवयवः न वर्तते तस्य तादृशमेव यत् अन्यत् शकलं परमाणुः, तस्य च परस्परं भेदज्ञानं कथं भवेत्? अतः
तावत्पर्यन्तं किं बोधम् इति.
अस्तु कस्यापि द्रव्यस्य वयमेकं द्रव्यं नयामः.
महोदय महोदय यद् भवता पठितं तद् वाक्यशः प्रतिपादयतु तेन सर्वेषां मनसि.
परस्परं भिन्न इति वयं ज्ञातुं शक्नुमः कथं? प्रत्येकम् अवयवभेदेन. यथा कपाषाणस्य अवयवम् अवयवौ कौ इति दृष्ट्वा तस्य अवयवाः अवयवौ ग घ च इति वयं पश्यामः. अन्यद् गपाषाणः एकमस्ति तस्य अवयवः अवयवौ च छ इति अस्ति. तर्हि अवयवौ दृष्ट्वा एकस्मिन् पाषाणे गघ अवयवौ स्तः अन्यस्मिन् पाषाणे चच्छ इति अवयवौ स्तः दृष्ट्वा ते क ग मध्ये परस्परं भेदोऽस्ति इति वयं ज्ञातुं शक्नुमः.
हा समीचीनं सम्यक् अस्तु अग्रे. तथा च
यस्य यस्य अवयवाः वर्तन्ते तस्य तस्य भेदज्ञानम् अवयवभेदेन भवति. यथा पूर्वोक्तं तथैव सर्वत्र तादृशमेव करणीयम् इति. परन्तु चर्मशकलस्य परमाणोः यस्य अवयवः न वर्तते तस्य तादृशमेव यत् अन्यत् शकलं परमाणुः, तस्य च परस्परं भेदज्ञानं कथं भवेत् इति. तर्हि तस्य पाषाण एकस्य यदि तस्य लोष्टपाषाणं वर्तते लोष्टपाषाणः वर्तते तत्र तस्य परमाणुः दृष्ट्वा तस्य अवयवः परमाणुः वयं नयामश्चेत् यथा परमाणु अथवा मालिक्यूल् किमपि वयं नयामश्चेत् तस्य भेदः अवयवभेदो द्रष्टुं न शक्नुमः. तदेव अन्तिमरूपम् तादृशम् अन्यमेकं मालिक्यूल् वयं नयामश्चेत् तस्य क पाषाणः घ पाषाणश्च वयं नयामश्चेत् तर्हि तयोर्मध्ये भेदं कथं वक्तव्यं शक्नु वयं
शक्नुमः. एकनिमिष परमाणुः परमाणुः इति चरमं शकलं चरम इत्युक्ते किं लास्ट् लास्ट् तस्य पुनः खण्डनं न कर्तुं शक्यते लास्ट् किल तदेव परमाणुः तादृशशकलमेव परमाणुः तस्य अवयवः अस्ति वा परमाणुः अस्ति वा नास्ति वा
नास्ति
हा नास्ति एतावत् पर्यन्तं वयम् अवयवभेदं दृष्ट्वा पदार्थभेदं स्थापितवन्तः किल अधुना परमाणुषु परस्परभेदार्थम् अवयवः एव न सन्ति अवयवाः एव न सन्ति तर्हि तयोः मध्ये द्वयोः परमाणोः मध्ये भेदः कथं स्थापयितुं शक्नुमः इति प्रश्नः प्रश्नस्य उत्तरत्वेन अग्रे विशेषः इति आगच्छति किञ्चिदेव पठामः
क्षम्यताम् एकः प्रश्नः परमाणु द्वयोः मध्ये वा अथवा परमाणु शिलाखण्डः मध्ये वा
परमाणु
भगिनी अहं विजये वदामि परमाणुः इति शब्दः भगवद्गीता मध्ये
भगिनी अधुना एकं वदामि वेदान्तशास्त्रे न्यायशास्त्रे भगवद्गीता परस्परभेदाः भवन्ति अस्तु एकस्य शास्त्रस्य पारिभाषिकशब्दाः तस्मिन्नेव शास्त्रे अन्वेति अत्र अत्र तद् न आनीय केवलम् अत्र परमाणु न्यायशास्त्रे परमाणुः इत्युक्ते किम् यस्य पुनः
न्यायशास्त्रे अपि अणुरणीयाम् एव अणुः अस्ति खलु
हा हा सत्यं
भगिनि
न्यायशास्त्रे परमाणुः इत्युक्ते यस्य पुनः खण्डनं न भवति इति मनसि भवेत्
धन्यवादः
हा अस्तु अधुना प्रश्नः अस्ति द्वयोः परमाणोः मध्ये ययोः अवयवाः न सन्ति तयोः भेदज्ञापनं कथं भवेत् इति तस्य उत्तरम् अग्रे अस्ति शिवराम महोदय पठितुम् इच्छति वा शिवराम महोदय अस्ति
तस्य च परस्परं वेदज्ञानं कथं भवेत् अतः सम्यक् अस्ति न
सत्यं
अतः तादृशज्ञानसम्पादनाय कणादमहर्षिणा विशेष इति पदार्थाः स्वीकृताः एते च विशेषाः यावन्तः परमाणवः तावत् सङ्ख्याङ्काः सन्ति इति अपि स्वीक्रियते यथा प्रत्येकम् आत्मनः एकैकं मनः इति मनोनिरूपणे वक्षते तथा अत्र अपि प्रत्येकं परमाणोः विभिन्नाः विशेषाः
वदतु महोदय पुनः
द्वयोः परमाणु मध्ये भेदवक्तुं कणादमहर्षिणा विशेष इति पदार्थः स्वीकृतः कणादमहर्षिणा विशेष इति पदार्थः स्वीकृतः द्वयोः परमाणु मध्ये भेद स्थापितुं यावन्तः परमाणवः तावत् सङ्ख्या सन्ति इत्यपि स्वीक्रियते यावन्तः परमाणवः सन्ति तावत् सङ्ख्याङ्कः महर्षिणा स्वीकृताः
परमाणवः कति सन्ति तर्हि
यावन्तः विशेषाः सन्ति तावन्तः परमाणवः
वस्तुतः यावन्तः परमाणवः सन्ति तावन्तः
यावन्तः परमाणवः सन्ति तावन्तः विशेषः क्षम्यतां
तर्हि प्रश्नः आगच्छति परमाणवः कति इति परमाणवः अपि अनन्ताः इन्फैनैट् तर्हि विशेषाः अपि अनन्ताः समीचीनं महोदय अग्रे
यथा प्रत्येकम् आत्मनः एकैकं मनः इति मनोनिरूपणे वक्षते तथा अत्रापि प्रत्येकं परमाणोः विभिन्नः विशेषः नाम वक्षते भविष्यत्काले अस्ति लुट्लकारः अग्रे आगच्छति. प्रत्येकम् आत्मनम् एकैक मनः अस्ति आत्मनः, तथा प्रत्येकपरमाणोः एकैकः विशिष्टः विभिन्नः विशेषः अपि परमाणुना सह अस्ति.
प्रत्येकं परमाणोः
एकः एकः विभिन्नः विशेषः अस्ति.
अस्तु, अन्ततो गत्वा सारांशेण, विशेषः इति पदार्थः किमर्थं स्वीकृतः?
विशेषः पदार्थः द्वयोः परमाणयोः मध्ये भेदं स्थापितुं विशेषः स्वीकृतः.
समीचीनम्. अतः एव, अपि च परमाणवः नित्यद्रव्याणि, अस्तु, अनित्यानि न. तदर्थमेव आरम्भे एव उक्तं नित्यद्रव्यवृत्तयः विशेषाः अनन्ताः इति. उत्तमम्. अस्तु, किञ्चिदेव समापयामः. अजितमहोदय अग्रे पठति वा? चित्रं निरूपयतु कृपया, पठित्वा.
तथा च चित्रे च परमाणुः च परमाणो त विशेषः च परमाणोः त विशेषः वर्तते. यथा पूर्वम् उक्तं, प्रत्येकस्मिन् परमाणे परमाणौ एकैकविशेषं विशेषः वर्तते इति तदेव चित्रेण निरूपितम्.
अग्रे पठतु.
च परमाणुः च परमाणुतः भिन्नः. कुतः? न विशेषस्य स एव आश्रयः, न तु च परमाणुः. एवं विपरीतमपि ज्ञातव्यम्. कुतः अथवा किमर्थं च परमाणुः च परमाणुतः भिन्नः इत्युक्ते, विशेषस्य स एव आश्रयः,
विशेषस्य आश्रयः च परमाणुः एव.
च परमाणुः न तु च परमाणुः. तथैव विशेषस्य आश्रयः च परमाणुः न तु च परमाणुः. अथवा च परमाणौ त विशेषः वर्तते, न तु त विशेषः. तथैव.
समीचीनं महोदय. अग्रे अग्रिमवाक्यं पठतु.
तथा च विशेषस्वीकारेण परमाणूनां परस्परभेदज्ञानं वयं सम्पादयितुं प्रभवामः. यथा परमाणोः
तावद् महोदय अग्रिमसप्ताहे कुर्मः. तर्हि विशेषस्वीकारेण किं प्रभवामः?
परमाणूनां परस्परभेदज्ञानं.
हा, समीचीनम्. हा, सम्यक्. इत्युक्ते परमाणौ पुनः खण्डनं न भवति खलु, पुनः अवयवाः न सिद्ध्यन्ति इति कृत्वा विशेषः इति पदार्थः आवश्यकः परमाणोः मध्ये भेदज्ञानार्थम् इति विशेषः इति पदार्थः. अस्तु, कोऽपि प्रश्नः वा एतावत्पर्यन्तं कस्यचिदपि?
प्रश्नः नास्ति भगिनि. करेक्षन् अहं चिन्तयामि. जगन्नाथमहोदय परमाणु इत्युक्ते मोलिक्यूल् इति अनुवर्तनं कृतवान्, परन्तु तत् नास्ति इति अहं चिन्तयामि. आटम् इति प्रायः वक्तुं शक्नुमः.
वस्तुतः विज्ञानदृष्ट्या आटम् अपि न शक्यं खलु, यतोहि वयं जानीमः अधुना आटम् इत्यस्यापि पुनः इलेक्ट्रान्स् न्यूट्रान्स् प्रोटान्स् इति पुनः पुनः गच्छति. तदर्थमेव न्यायशास्त्रे परमाणुः इत्युक्ते किम् इति चिन्तयन्ति. तावत्पर्यन्तं यस्य पुनः शकलम् अथवा विभागः न भवति अथवा यस्य अवयवाः न भवितुमेव अर्हन्ति तदेव परमाणुः.
भगिनि, परमाणु अपि नित्यद्रव्यं वक्तुं शक्नुमः?
अवश्यं, तदर्थमेव नित्यद्रव्यवृत्तिः विशेषः.
तर्हि अत्र पञ्च तत्र पृथ्वी, जलं, तेजः, वायुः तत्र एव परमाणुः इति अस्ति वा? अथवा आकाशे कालदिक् आत्मा मनः तत्रापि परमाणुः अस्ति वा?
तत्रापि परमाणुः अस्ति. पार्थिवपरमाणवः परमाणुः इति सर्वेषाम् आधारः. अस्तु, सर्वे पदार्थाः परमाणुषु सर्वे पदार्थाः परमाणुषु विद्यन्ते इति.
तर्हि आत्मनः खण्डनं कथं कर्तुं शक्नुमः?
जीवात्मा परमात्मा इति जीवात्मानि जीवात्मा अपि तथा सन्ति.
तर्हि जीवात्मन जीवात्मनस्मनत्सु तत्र परमाणुः अस्ति इति वा?
भगिनी भवत्याः प्रश्नः समीचीनः अस्ति. पार्थिव जलीय तैजस वायु वायुवीयः परमाणवः तु सन्ति. अस्तु परमाणवः कुत्र बहुत्र वर्तन्ते, आकाशे अपि सन्ति इति मया श्रुतं. किन्तु कालः दिगात्मा मनः इत्यस्य विषये किम् उक्तम् आसीत् अस्माकं वर्गे इति पुनः परिशीलनीयं. जयन्ती भगिनी किमपि स्मरति वा?
भगिनी आकाशात्मनः नित्यद्रव्याणि इति कृत्वा तेषां खण्डनम् एव न भवति इत्युक्ते तस्य तेषाम् उत्पत्तिः वा नाशः अपि न भवितुम् अर्हति.
सत्यम् आकाश
कृत्वा अवयवाः न सन्ति तेषां.
हा सत्यं सत्यं भगिनी विद्या भगिनी तदेव उत्तरम्. आकाशः दिगात्मा मनः नित्यद्रव्याणि तेषाम् अवयवाः न सन्ति.
तर्हि तत्र परमाणुः अपि नास्ति.
नास्ति सत्यम्.
अस्तु अस्तु.
हा तदर्थमेव एतावता पार्थिव जलीय तैजस परमाणवः वायुवीयः इति.
ओ तर्हि वायोः खण्डनं कथं कर्तुं शक्नुमः इति अहं न जानामि, परन्तु तत्रापि परमाणुः अस्ति.
सत्यं वायुः इति नित्यद्रव्यं नास्ति खलु, वायुवीयपरमाणवः अपि स्युः.
अस्तु अस्तु धन्यवादः भगिनि.
वायौ केषुचित् भागे कस्मिंश्चित् द्रव्य गन्धः वर्तते, कश्चन गन्धः वर्तते, अन्यस्मिन् भागे अपरः गन्धः वर्तते इति कृत्वा तेषां परमाणवः अपि भिन्नाः इति तादृशं परिवसति खलु वायौ.
परन्तु गन्धः तु पृथ्व्यामेव अस्ति.
आमां परन्तु तत्तु विस्तरेण चर्चयितुं शक्नुमः. परन्तु वायोः गुणः तु अस्तु, इदानीं तु रूपरहितः अस्ति, परन्तु गन्धेन वयं वक्तुं शक्नुमः यत् अस्मिन् भागे कश्चन गन्धः वर्तते, अपरस्मिन् भागे भिन्नः गन्धः वर्तते इति खलु. गन्धेन कश्चन विज्ञानं
तादृशखण्डनमपि अपि च स्पर्शः, उष्णस्पर्शः, उष्णवायुः अथवा शीतलः वायुः, तथापि किञ्चित् भेदम् अवगच्छामः अवगन्तुं शक्नुमः. वायुः सर्वत्र समानः नास्ति.
अस्तु 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 धन्यवादः भगिनि.
शुभरात्रिः भगिनि.
अस्तु
धन्यवादः.
रक्षा भगिनि एक प्रश्नः, एक सामान्यप्रश्नः. तत्र इयं गावौ इति एक इयं गौः इति एक वाक्यमस्ति. इयं गौः पुल्लिङ्गपदम् अस्ति खलु?
न स्त्रीलिङ्गपदं. गौः इति पुल्लिङ्गे अपि अस्ति महोदय, पुल्लिङ्गे अपि अस्ति, स्त्रीलिङ्गे अपि अस्ति.
अस्ति वा?
हा प्रायः पुल्लिङ्गे गौः इत्युक्ते बुल् इति, परन्तु इयं गौः इति इयं धेनुः इति स्त्रीलिङ्गे स्वीकृतम् इति मया अपि दृष्टं. स्त्रीलिङ्गे अपि अस्ति, पुल्लिङ्गे अपि अस्ति इति.
अस्तु धन्यवादः.
अस्तु महोदय धन्यवादः.
धन्यवादः
धन्यवादः
धन्यवादः.